श्रवत्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनश्रण्वन्नोतिभिः सीधसाधनम् प्रणो देवी सरस्वती वाचेभिर्वाजनीवती धीनामवित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरि ओम् ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यवौतो दैशवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुचते नमः या तैष शिवतमा शिवम् बभूव ते धनुः शिवा शरव्याया तवतया नो रुद्रमृणया या ते रुद्र शिवा तनूरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ता विचाकशी यामिशुम् गिरिशन्त हस्ते बिभर्षस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसी पुरुषम् जगत शिवेन वचसा त्वा गिरिशाच्चा वदामसि यदा नः सर्वमिज्जगदयक्ष्मगुंसुमना असत अध्यो जगदि वक्ताम् प्रथमो दैवोऽभिषक हरिगुंश्च सर्वान् जम्बयन् सर्वान् श्रयातु धान्यः असव्यस्ताम्रो अरुणौत बभ्रुः सुमङ्गलः ेमाकुम् रुद्रा अभितो दिक्षुश्रुता सहस्रशो वैशाबुम्भेडरीमहे असभ्यो अरुदर्पति नीलग्रीवो
The children of Sai humbly offer a drama.
उदयनम् विश्वा भूतानि सदृशो मृळयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो अकरन् नमः प्रमुञ्च धन्वनस्वमुपयोराग्नियोज्या याश्चते हस्तैषवः पराता भगवो अवतत्यधनुस्वगुम् सहस्राशतेषु दे निशीलशल्यानामुखा शिवो नः सुमना भव ऋज्यम् धनुः कपर्धिनो विशल्यो बाणवागुम् हुता अनेशन्नस्येषव आभुरस्य विषङ्गतिः या ते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्वमयक्ष्मया परिभुजा नमस्ते अस्वायुभायानाथताय कृष्णवे परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो यैषुधि सवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठा मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः तस्पिंजराय द्विषीमते पतीनां पतये नमो नमो बभ्रुषाय विव्याधिने नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हैते जगतां पतये नमो नमो रुद्राय क्षेत्राणां पतये नमो नमः सूताय हन्त्याय मनानां पतये नमो नमो रोहिताय सपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवसृताय औषधीनां पतये नमो नमः उच्चैर्घोषाय क्रन्दयते पतीनां पतये नमो नमः हृत्सवीताय धावते सत्त्वनां पतये नमः नमः सहमानाय दिव्याधिनः व्याधिनीनां पतये नमो नमः ककुबाय निषङ्गिने निषङ्गिन इषुधिमते तत्कराणां पतये नमो नमो वञ्चते परिवञ्चते सायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः शिकाभिभ्यो जिगागुंसद्भ्यो मुष्णतां पतये नमो नमो सिमद्भ्यो नक्तं चरभ्य प्रकृन्तानां पतये नमो नमः उशीशिने गिरिचराय कुलुञ्चानां पतये नमो नमः इषुमद्भ्यो दन्वाभ्य शवो नमो नमः आतन्वानेभ्य प्रतिदधानेभ्य शवो नमो नमः आयश्रद्भ्यो विषजद्भ्य शवो नमो नमोऽस्यभ्यो विद्यद्भ्य शवो नमो नमः आसीनेभ्य शयानेभ्य शवो नमो नमः स्वभ्यो जाग्रद्भ्य शवो नमो नमः स्तिष्ठद्भ्यो धावद्भ्य शवो नमो नमः सभाभ्य सभापतिभ्य शवो नमो नमो अश्वेभ्यो अश्वपतिभ्य शवो नमः नमः व्याधिनीभ्यो विविद्यन्तीभ्य शवो नमो नम उगणाभ्य स्रगुंहतीभ्य शवो नमो नमो घृत्सेभ्यो घृत्सपतिभ्य शवो नमो नमो व्रातेभ्यो व्रातपतिभ्य शवो नमो नमो गणेभ्यो गणपतिभ्य शवो नमो नमो विरूपेभ्यो विश्वरूपेभ्य शवो नमो नमो महद्भ्यः क्षुल्लकेभ्य शवो नमो नमो रथेभ्यो रथेभ्य शवो नमो नमो रथेभ्यो रथपतिभ्य शवो नमो नमस्सेनाभ्य सेनानिभ्य शवो नमो नमः शत्रुभ्य सङ्गहीतृभ्य शवो नमो नमः सर्षद्भ्यो रथकारेभ्य शवो नमो नमः कुलालेभ्य कर्मालेभ्य शवो नमो नमः कुञ्जिष्ठेभ्यो निषादेभ्य शवो नमो नमः इषुभ्यो धन्वकृद्भ्य शवो नमो नमो मृगयुभ्य श्वनिभ्य शवो नमो नमः श्वभ्य श्वपतिभ्य शवो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीरुश्रमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नम आशवे चाजिराय च नम शीघ्रियाय च शीभ्याय च नम ऊर्म्याय च स्वन्याय च नम श्रोतस्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नम पूर्वजाय च परजाय च नमो मध्यमाय च अपगल्भाय च नमो जघन्याय च बुध्नियाय च नम सौख्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नम उर्वर्याय च कल्याय च नम श्लोक्याय चावसान्याय च नमो वन्याय च कक्षाय च नम श्रवाय च प्रतिश्रवाय च नम आशुषेणाय चाशुरथाय च नम शूराय चावविन्दते च नमो वर्मिणे च वरुणे च नमो बिल्मिणे च वचिने च नम श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो दृष्णवे च प्रमृषाय च नमो धूताय च प्रहिताय च नमो निषङ्गिने चेषु धिमते च नम तीक्ष्णे च वेचायुधिने च नम स्वायुधाय च सुगन्वने च नम श्रुत्याय च पत्याय च नम काट्याय च नीप्याय च नम सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नम कूप्याय च वट्याय च नमो वर्षाय च वर्षाय च नमो मेध्याय च विद्युत्याय च नम ईद्याय रातप्याय च नमो वात्याय च रेश्म्याय च नमो वासव्याय च वास्तुपाय च पतये च नम उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्काराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्थ्याय च कूल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आकार्याय च लाद्याय च नमः षष्ट्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नमः किगुंशिलाय च क्षयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सर्व्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्याय च नमः पर्णाय च पर्णश्रद्धाय च नमोपगुरमानाय च विघ्नते च नमः आखिरते च प्रखिरते च नमो वक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नमः आनिर्हतेभ्यो नमः आमीर्वत्केभ्यः द्रावे अन्धसस्वते दरिद्रन्नीललोहिता येषाम् पुरुषाणाम् येषाम् पशूनाम् मा भेर्मारोमो येषाम् किञ्चन ममत या ते रुद्रशिवा तनुशिवा विश्वाः भेषजी शिवा रुद्रस्य भेषजी दयानो मृणजीवते इमागुम् रुद्राय तव सेवपर्जिने क्षयद्वीराय प्रभरा महेमतिम् यदा नश्वसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् नृणानो रुद्रो तनो मयस्कृति क्षयद्वीराय नमसा विधेमते यक्षञ्चयोश्च मनुराय जे पिता तदस्या मघवरुद्र प्रणीतौ मानो मान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदी पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन एमान आयुषिमानो गोषिमानो अश्वेषु धीरिषः वीरान्मानो रुद्रभामितो वती हविष्वन्तो नमसा विधेमते आराते गोग्नौत पुरुषग्ने क्षयद्वीराय सुन्नमस्मेते अस्तु रक्षा च नो अधि च देव भूयता च नः शर्म यच्चर्भिवराः सुहिश्रुदम् गर्धसदम् युवानम् मृगन्न भीम उपहन्तुम् उग्रम् नृणाचरित्रे रुद्रस्तवानो हन्यन्ते अस्मन्निवपन्तु सेनाः परिणो रुद्रस्य हेतिर्मृणक्तु परिक्लेशस्य दुर्मतिरगायो अवस्थिरा मघवद्यस्तनुष्वमीवस्तोकायतनयाय मृडया मीडुष्टमशिवतम शिवो नः सुमना भवा परमे वीक्ष आयुधन् निधाय कृत्रिम्बसा न आचर पिनाकम् बिभ्रता गही विदीर्घ विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निवपन्तुता सहस्रानि सहस्रधा बाहुवोस्तव हेतयः सामीशानो भगवः पराचीनामुखाकृति सहस्रानि सहस्रशो ये रुद्राधिभूम्या एषा गुं सहस्रयोजने वदन्वानि तन्मसि नस्मिन्महत्यन्नवेन्तरिक्षे भवादि नीलग्रीवा क्षितिकण्ठा शर्वा अधः क्षमाचरा नीलग्रीवा क्षितिकण्ठा दिवगुम् रुद्रा उपश्रुता ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिता ये भूतानामधिपतयो विशिका सर्कपर्जिनः ये अन्येषु विविद्यन्ति पात्रेषु पिबतो जनान् ये पताम्बतिरक्षय ऐलभृदायव्युदः ये तीतानि प्रचरन्ति शिकावन्तो निषङ्गिनः यैतावन्तस्य भूयागुंसश्च इषो रुद्रावितस्थिरे तेषापुंसश्रयोजने वदन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्यां ये तरिक्षे ये दिव्ये शामन्नं वातो वर्षविषवस्तेभ्यो दश प्राक्षीदश दक्षिणादश प्रति शीदशोदीचीदशोध्वास्ते भ्यो नमस्ते नो मृडयन्तु तेयं विष्णो यश्च नो द्वेषितं भोजं वे ददामि त्रयम्बकं यजामहे सुगन्धिं पुष्टिवर्जनम् गुर्वारुकमिव बन्धनात् नित्योन्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सुय ओषधीषियो रुद्रो विश्वाभुवनानिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतं पाशा मृत्यो मन्त्याय हन्तवे तां यज्ञस्य मायया सर्वानमयजामहे नृत्यवे स्वाहा नृत्यवे स्वाहा प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येना नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुषु हियशुषुस्तुधन्वायो विश्वस्य क्षयति भेषजस्या यक्ष्वा महेशौ मनसाय रुद्रं नमो भृद्देवमसुरं दुवस्या अयं मे हस्तो भगवान् अयं मे भगवत्तरः अयं मे विश्वभे सजोयगुं शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः स्वस्य प्रजाभ्यः परिपालयन्ता ज्ञानेन मार्गेण मही महिषा शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ
गणेशाय नमः सरस्वत्यै नमः
अन्यार्तावरी अतन्नहे वसूर्यः उदनः प्रिया प्रियासु सप्त